इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। मुख्य वार्ताः। भारत बांग्लादेशाभ्याम् विविधेभ्यः क्षेत्रेभ्यः सन्धिपत्रेषु हस्ताक्षराणि जातानि। वित्तमन्त्री निर्मला सीतारामनः अद्य नवदिल्ल्यां सर्वेषां राज्यानां केन्द्रशासित प्रदेशानां च वित्तमन्त्रिभिः सह प्राक् आय व्यय पत्रक चर्चां कृतवती। एनटीए इत्यनेन आयोज्यमानानां परीक्षाणां पारदर्शितया संचालनं कर्तुं शिक्षामन्त्रालयेन एकस्याः उच्चस्तरीय समितेः निर्माणं कृतम्। भारतस्य ज्योति सुरेखा वेनमः, परनीत कौरः, अदिति स्वामी कम्पाउण्ड टीम स्पर्धायां स्वर्णपदकं व्यजयन्त। अपि च आईसीसी पुरुष विंशति विंशति विश्व चषक स्पर्धायाम् अद्य सायं उत्कृष्ट अष्ट स्पर्धासु भारत बांग्लादेशयोः स्पर्धा। इदानीं वार्ताः विस्तरेण। भारत बांग्लादेशाभ्याम् अद्य अनेकेषु ज्ञापनपत्रेषु हस्ताक्षरं कृतम्। एतेषु सन्धिपत्रेषु आंकिक हरित अंशभागिता, समुद्र सहकारिता, स्वास्थ्य चिकित्सा, अन्तरिक्ष सहभागिता, रेल मार्ग सम्पर्कः, समुद्र विज्ञानम्, आपत प्रबन्धनम्, मत्स्य पालनम् च क्षेत्राणि सन्ति। नवदिल्ली नगरे प्रधानमन्त्रिणः नरेन्द्र मोदिनः, बांग्लादेशस्य प्रधानमन्त्रिणः शेख हसीनायाश्च वार्तालापानन्तरम् एतानि सन्धिपत्राणि हस्ताक्षरितानि। एकस्यां वार्ताहर विज्ञप्त्यां प्रधानमन्त्री मोदी उक्तवान् यत् बांग्लादेशः भारतस्य नेबर फर्स्ट एक्ट ईस्ट इति नीतेः आधारशिला अस्ति। सः अवदत् यत् गते एकवर्षे उभाभ्यां देशाभ्यां मिलित्वा जनकल्याणस्य कृते बहव्यः महत्वपूर्णाः परियोजनाः सम्पन्नाः। वित्तमन्त्री निर्मला सीतारामनः अद्य नवदिल्ल्यां सर्वेषां राज्यानां केन्द्रशासित प्रदेशानां च वित्तमन्त्रिभिः सह प्राक् आय व्यय पत्रक चर्चां कृतवती। उपवेशने गोवा, मेघालय, मिजोरम, नागालैण्ड, सिक्किम प्रदेशानां मुख्यमन्त्रिणः, बिहार, मध्यप्रदेश, उड़ीसा, राजस्थान, तेलंगाना प्रदेशानां उपमुख्यमन्त्रिणः, केन्द्रीय वित्त राज्य मन्त्री पंकज चौधरी, वित्त सचिवः टीवी सोमनाथनः, वरिष्ठः अधिकारिणश्च भागं गृहीतवन्तः। वस्तु सेवा कर संघस्य 35वीं गोष्ठी सम्प्रति नवदिल्ल्यां प्रचलन्ती अस्ति। वित्तमन्त्री निर्मला सीतारामनः संघस्य गोष्ठ्याम् आध्यक्ष्यं विदधाति। वस्तु सेवा कर संघस्य अन्तिमा गोष्ठी गतवर्षे अक्टूबर मासे संजाता आसीत्। राष्ट्रीय परीक्षा अभिकरणम् एनटीए इत्यनेन आयोज्यमानानां परीक्षाणां पारदर्शितया, सुगमतया, निष्पक्षतया संचालनं सुनिश्चयं कर्तुं शिक्षामन्त्रालयेन एकस्याः उच्चस्तरीय समितेः निर्माणं कृतम्। इसरो भारतीय अन्तरिक्ष अनुसन्धान संघटनस्य प्रमुखः के राधाकृष्णनः परीक्षा प्रक्रियायां परिष्काराय 7-सदस्यात्मिकायाः समितेः नेतृत्वं करिष्यति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। तमिलनाडु प्रदेशस्य कल्लाकुरीची विषाक्त मद्य त्रासद्याम मृतकानां संख्या वर्धित्वा चतुः पञ्चाशत् अभवत्। राज्य प्रशासनम् जनपद प्रशासनम् अवैध मद्य निर्माणे सम्मिलितानां जनानां विरोधे क्रियान्वयनं कर्तुम् उक्तवत्। उड़ीसा राज्ये अद्य पुरी नगरे श्री मंदिरे भगवतः श्री जगन्नाथस्य अनुजयोः देवस्थान पूर्णिमा उतवा स्नान यात्रा विधि विधानेन समारब्धा। अद्य प्रातः काले दाता इति सेवकाः मंत्रोच्चारणेन सह भगवत जगन्नाथ भगवन्तं बलभद्रं भगवतीं सुभद्रां सुदर्शनं मदन मोहनं च मुखमंदिरस्य गर्भगृहस्थिते रत्न सिंहासनात् पहांडी इति शोभा यात्रायाः नीतवन्तः। तान् बाह्य मंदिर परिसरे स्थिते स्नान वेदीं च प्रति नीतवन्तः। मंदिरस्य पुरोहिताः स्नान विधि पूर्वक मंदिरस्य अन्तः परिसरे स्थिते स्वर्ण उल्पास्यात् पवित्र कूपात् आनीतेन जलेन स्थानोपचारे आदि विहितवन्तः। भारतस्य ज्योति सुरेखा वे नमः परनीत कौरः अदिति स्वामी तुर्कीये इत्यत्र अन्ताल्या लक्ष्य संधान विश्व चषक चतुश्चत्वारिंशत् उत्तर द्विसहस्रे कंपाउंड टीम स्पर्धायां स्वर्ण पदकं व्यजयन्त। भारतीय महिला दलम् अद्य एस्टोनियां द्वात्रिंशद् उत्तर द्विशतम् ऊनत्रिंशद् उत्तर द्विशतम् अंकानां पुरस्तात् पराजित्य स्वर्ण पदकं विजितवत्। अनेन सहैव विजयेन भारतीयं दलं कंपाउंड टीम स्पर्धायां त्रीणि स्वर्ण पदकानि विजितवत्। ऋतु विभागेन आगामिषु चतुर्षु दिवसेषु केरल कर्नाटक गोवा प्रदेशेषु अतिवृष्टेः अनुमानं प्रकटितम्। सहैव गुजरात महाराष्ट्र लक्षद्वीप आंध्रप्रदेश तेलंगाना तमिलनाडु पुडुचेरी प्रदेशेषु गर्जेण सह मध्यमा वृष्टिः संभाव्यते। पूर्वोत्तरे नागालैंड मणिपुर मिजोरम त्रिपुरा प्रदेशेषु अद्य अतिवृष्टिः संभाव्यते। उपगंगम बिहार झारखंड ओडिशा अंडमान निकोबार द्वीप समूह एतेषु प्रदेशेषु विद्युत विद्योतनेन सह तीव्र प्रवाहेण च सह मध्यमा वृष्टिः संभाव्यते। आगामिनोः द्वयोः दिवसयोः तापमानं वर्धितुं शक्नोति। ऋतु विभागेन पीत वार्णिकी जनसंचेतना प्रसारिता। आईसीसी अंतर्राष्ट्रीय क्रिकेट परिषद पुरुष विंशति विंशति विश्व चषक चतुश्चत्वारिंशद् उत्तर द्विसहस्र इत्यस्याम् श्रृंखलायाम् अद्य सायं एंटीगुआयाः नॉर्थ साउंड इत्यत्र सर विवियन रिचर्ड्स स्टेडियम इत्याख्ये क्रीडांगणे सुपर अर्थात उत्कृष्ट अष्टस्पर्धासु भारत बांग्लादेशयोः स्पर्धा भविष्यति। स्पर्धा एषा भारतीय समयस्य अनुसारेण रात्रौ अष्टवादने प्रारप्स्यते। प्रियाः श्रोतारः संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एम गोल्ड प्रवाहिकातः रविवासरे मध्याह्ने सार्धैकवादनतः भविष्यति। भवन्तः सर्वेपि श्रोतुं प्रभवन्ति अर्थात् भवती आशासे भवन्तः श्वः श्रोष्यन्ति। विश्व टेबल टेनिस कंटेंडर प्रतियोगितायाः महिला युगल उपांत्य चक्रे अद्य लोगोसे भारतस्य श्रीजा अकुला अर्चना गिरीशः कामथस्यश्च अनयोः युगलं भारतस्यैव युगलं स्पर्धिष्यते इति वार्ताः।